अनाथकम् सत्यमयमानगणिताम् उपत्वाजामयदत्तनिज्ञैः हे सुप्रदोषयोभिनन्दाः स्वतन्त्रयदाभिजायसव्या आयुष्पाणेभ्यवन्दश्च आयाः चज्ञानुभिस्तलोकाः सङ्गयमानामभिस्तभोगाः स्वयमानेत्येषुपोजीराय प्राचीनम् बहिःपरिशाभिव्याः सत्त्वारत्याविद्यते अग्रे अह्नाः द्विप्रथयविधरम् वैयः शेरेभ्योऽभिजयेत्वारम् शुम्भमानाः देवेश्वमिन्द्राः शेरेभ्यो भवतु पुत्रायणाः आदत्वयन्ते जने उपाके विषादानिकादृतान्योषणे बृहते दुरुक्मे अयत्येकुन्दप्रभिसन्दधाने हैत्याहोदाराः प्रसमाभुवागाः विमानायज्ञम् मनुषाभिलभ्यये सत्वयन्ता विदधेतु राजेरन्त्योजप्रभिदाभ्यन्ताः आमायज्ञम् भारते योजमेतौ शिलामनस्वधिरयन्ते शिस्त्वदेवेयज्ञस्योनम् सर्वपदे समयत्वन्तो लोकेतमिदम् सद्भुवनानिश्वाः दैवम् दत्तादिभयस्य विद्वान् उपापचरत्मन्यातमञ्जन् देवानाम् पादलुधाहेगुंसे मनःपरिश्रमिता देवाग्निः अनन्तरव्यम् मधुनाधेन सद्यो जातोऽभ्यमेदयज्ञम् अग्रदेवानाम् प्राप्तलोकाः अस्य होदप्रयत्कृतस्य मासे स्वाहाकृतम् हरिदन्तदेवाः अग्निर्होतानो अभ्यरे काजे सम्परिणीयते देवो देवेषु यज्ञः परिकृत्यध्वरम् सज्ञेन धीरिव आ देवेषु प्रयोदर हरिवाचमजक्रमिः अग्निर्हव्यान्यक्रमेण नभद्रत्नानि साधुषेः हरिरग्निः अधनद्वाजन्ये देवो देवेभ्यो हव्यामानः प्राणिन्द्रभिरिहन् बाणः जैनाभिकल्पमानः यज्ञस्याय प्रजनन् वक्रेष्यभवतः हव्या देवेभ्यः देव्याः स्वरितारमुदमनुष्यारभ्रम् वनेभ्यः आचारामेधमनिभ्याम् मेधम् स्वाग्निम्भरमनिः अन्वेरम् मातामन्यताम् अनुभिजा अनुभ्रातासुरभ्यः अनुसकादयोभ्यः देशेनागम् अस्य वपानिभक्तात् सोऽयञ्चक्रगमयात् पादम् प्राणमण्डलभुजनात् विशस्रात्रम् अन्तरिक्षपदम् उपवेदम् शरीरम् एकथाप्यत्वजमाक्षतान् पुराणाभ्यासमुक्षितदान् अन्तरेवाक्तानम् मारयदात् शेनमक्षरक्षक्रमदात् सदा बाहो सदा दोषैः रक्षदेवासन्दाः अच्छिद्रेश्वाणैः कवचोदोक्षेकवन्नाश्चैवन्ताः सर्वेगुंसदेवङ्गयः साहक्षोक्षावयदात् गात्रम् गात्रमक्षानोऽनम् कृतात् गोरक्षदोऽहम् पार्थिवम् कृतवान् हस्तारक्षस्यगम् जगदान् तनिष्टमस्तवानाविष्टा पूर्वम् मन्यमानाः जयद्वत्वग्रेतनये हवितानवक्षमितारः अभ्युगोषमेध्वम् शमेध्वमद्भिव अभ्युगश्चापामश्च उभौ देवानागम् समितारौ साधुम् वसुद्वत्सवयताम् प्रविद्वाङ्गौ यथा यथा शत्रुपनम् तथा तथा अव्यायत्वानादरे शिवन्नायज्ञमुपदेशे मा अव्याजानवेदोजनस्य स्वराणामज्ञेदोघनस्य अवहत्राजानप्रथमोघस्य घृतबन्धत्वावगते स्वकास्त्वमेधतः प्रसन्नम् देवदेशये श्रेष्ठन्नाधेहितार्यम् सभ्यस्य स्वकाघृतश्चिनः अग्नेत्रायम् च कृषिश्रेयश्चमिद्धते यज्ञश्चत्रा विचाभवः सभ्यज्ञश्चोदम् च द्विगोषजीवः సోకాదో అగ్నేతృత్య
సరిజత్వమిరేవ్యోజక్షిరస్వేభ్యోజక్షిరేంద్రాంద్రేభ్యోగిరాహుస్రమణాహుస్రాష్ణే
సాగక్షమాయాక్షన్మనసావస్థాన్యాయమక్షం హోదారిక్షమిందాగేషదేమక్షం హోదారిక్షమిందాగేష్ణాగుమే హోదరిగిరాయ అవిష్ణం ఇంద్రాజ్ఞాంగ్రాజ్ఞాతరేక్ష
అశ్వాభిలాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహోదాహ
ఆయంతః సర్వస్య వస్త్రమాపన్నమర్కం నామాన చతుర్భిరే యజ్ఞాని భద్రాయాహం చరణయంత్రమం దృష్టౌ స్వాం వర్ధం దక్షిణ పృథివ్యాం ప్రభురాజ భయా భోజనానాం పరందాతాపరణేభూ సీతామాతాచరీన్మానుషాణాం సపరిషేణ్యస్థ ప్రియోక్షరక్షిః హోతామున్ద్రోణ సంతాపయంతమాజే జివాగుంసం ఉపజ్ఞవాధో నవసాధుజన్యమాన్ సంతాపయగం సుధీవానమగ్నే విశ్వేత్వమానాదశేత్వత అస్మాదయమహి మహేమోదే భద్రాజాం సమతౌయమ ఆయత్నం తరవృష్టమాదేస్తేభ్యరగ్నేతనం విభాహి ఆభరణిక్షు అవసాయ అగ్రస్థాత్
ఆచార్యోక్తాకారోక్తూ